जगन्मातुः मा तमसा तापेन चाकुलानस्मान् अनुगृह्णात्वनुकम्पा सुधार्द्रया हसितचन्द्रिकया
निखिलेषु प्रवहन्तीं निरुपाधिविमर्शयोगदृश्योर्मिम् अजरामजाममेयां कामपि वन्दे महाशक्तिम्
सा तत्त्वतः समन्तात् सत्यस्य विभोस्तथा तपःशक्तिः लीला महिला वपुषा हैमवती तनुषु कुण्डलिनी
परमः पुरुषो नाभिर्लोकानां सत्य उच्यते लोकः परितस्ततः सरन्ति सूक्ष्मा शक्तिस्तपो लोकः
पुरुषाग्नेर्धूमकल्पवुद्गारः शक्तिज्वालः परितः प्रान्तेष्व भवज्जनो लोकः
अतिसूक्ष्मधूमकल्पं लोकं तदमाख्ययान्ययानाकम् एतं ततोऽपि सूक्ष्मा व्याप्ता अन्तरतः पराशक्तिः
धूमान्तरूष्मकल्पा शुद्धज्वालोपमा च या शक्तिः तां दिवमाहुः केचन परमं व्योमा परे प्राहुः
गीर्णधूमकल्पो यूयमपारो महाञ्जनो लोकः व्योमान्तरिक्षगगन प्रभृतिभिः अभिधाभिराहुस्तम्
प्रान्तेषु कोऽपि शक्तेः पृथगात्मा वियदुबाधिसङ्गेन परमात्मनो विभक्तः स्वयमभिमन्ता विनिष्पीदे
दक्षः परोक्षमुदितः पन्था एष त्विषां जनो लोकः तद्गर्भे लब्धात्मा कथिता दाक्षायणी शक्तिः
शक्तेः प्रादुर्भावः स कीर्त्यति प्रथमः ईशाभिमानमय्याः पृथगभिमानित्वनिष्पत्त्या
आकाशस्य सुतैवं लक्षणया वस्तुतः प्रसूशक्तिः अदितेर्दक्षो दक्षात् अदितिरिति श्रुतिरबाधैवम्
जगतां माता पितरौ सती भवौ केऽपि पण्डिताः प्राहुः अदितिप्रजापतितौ अपरेषां भाषया विदुषा
दिव्यपुमाकृतिमीशे बिभ्रति लीलार्थमस्य रमणाय दिव्यवनिता कृतिं सामभारमाता च भुवनानां
भासुरहेमाभरणा बहुशोभां ईश्वरप्रमोदकलां मूर्तिं पावनकीर्तिं तां हैमवतीं उमामाहुः
तस्य प्रथमः साक्षी भुवनचुषां नयनशालिनां मध्ये वपुषः किलादिसुदृशो निरुपमपुण्यो निलिम्पपतिः
पल्लवमृदुवेदिगत ज्वलनपवित्रं महार्घमणिकान्तम् नवचन्द्रखण्डसौम्यं शिवसुदृशः तत्स्मरामि वपुः
केचन गौरीं देवीं सीताद्रेर्देवतात्मनो जातां कथयन्ति स्त्रियमुत्तम लावण्या स्वादितो गण्याम्
सत्यैव भवतु सेयं कथा तथापि प्रभाषितां भक्तैः मादिसुदृशो जानीयात् कमपि तेजोंशम्
मन्यन्ते केऽपि घनं पर्वतमुक्तं निगूढया वाचा प्रादुर्भवति गभीर ध्वनिरविषह्या यतः शक्तिः
गोलेभ्यो यद्वितरति निजरजश्चयादन्नम् निशाय कीर्त्यते सा संसारे दक्षयागकथा
व्याप्तापि अन्निगूढा बहिरीक्षकबुद्ध्यपेक्षया नष्टा शक्तिर्यागे तस्मिन् अवसानं तदुदितं सत्याः
पर्वतनाम्नो वैदिकभाषायां यदियम् अतिबलाशक्तिः घनतो भवति व्यक्ता तदभिहितं पार्वतीजननम्
तेजोंशतः शिवा विह हिमाचले अनुग्रहाय भूमिजुषा दत्तो यत्सान्निध्यं लीलाचारित्रं मन्यदिदम्
एतासाम् आर्याणां जानन्तः शास्त्रसम्मतं भावम् जानीयुर्भव महिषीं भुवनानाम् अम्बिकां देवीम्।